विद्यारण्यः। अस्ति तुङ्गभद्रायाः तीरे कश्चन ग्रामः। तत्र मायणः नाम कश्चित् गृहस्थः निवसति स्म। मायणस्य त्रयः पुत्राः माधवः, सायणः, भोगनाथः च इति। त्रयः अपि तेजस्विनः। ग्रामस्य समीपे कश्चन आश्रमः आसीत्। ते तत्र विद्याभ्यासं कुर्वन्ति स्म। माधवः अभ्यासे क्रीडादिषु च अग्रगण्यः, गुरूणां प्रियतमः। उषःकालः, माधवः सहाध्यायिभिः सह स्नानार्थं नदीम् आगतः। सः नद्यां तरति स्म। तदानीं दूरे एकस्याः स्त्रियाः चीत्कारः श्रुतः। माधवः किमिदम् इति चिन्तयन् परितः दृष्टवान्। पुनः अपि चीत्कारः। माधवः सद्यः एव तीरम् आगतवान्। चीत्कारम् अनुसृत्य धावितवान् च। राजमार्गे एका शिबिका। शिबिकां परितः यवनसैनिकाः सन्ति। ते शिबिकावाहकान् भीषयन्ति। शिबिकायाम् एका तरुणी अस्ति। तां तरुणीम् अपहर्तुं ते सैनिकाः प्रयत्नं कुर्वन्ति। सा तरुणी भयात् क्रन्दनं करोति। माधवः एतत् सर्वं दृष्टवान्। माधवस्य महान् क्रोधः आगतः। यवनाः भारतदेशे स्त्रियाः अपमाननं कुर्वन्ति किम्? यवनानाम् एतादृशम् औद्धत्यं किम् इति आलोचितवान् सः। माधवः निरायुधः आसीत्। सः तत् न गणितवान्। सद्यः एव आक्रमणं कृतवान्। यवनानाम् उपरि हस्तप्रहारं कृतवान्। स्त्रियाः विमोचनं साधितवान् च। एतत् आक्रमणं यवनानाम् अनिरीक्षितम् आसीत्। ते अपि क्रुद्धाः सञ्जाताः। ब्राह्मणबालकं दृष्ट्वा तेषां कोपः प्रवृद्धः। ते सर्वे मिलित्वा बालकस्य उपरि आक्रमणं कृतवन्तः। माधवः तु धीरः। समीपे एकः योधः आसीत्। तस्य हस्तात् माधवः खड्गम् आकृष्टवान्। तेन खड्गेन द्वित्रान् मारितवान्। एतद् दृष्ट्वा इतरे अपि पलायनं कृतवन्तः। तरुणी भयकम्पिता आसीत्। माधवः तां तस्याः गृहं प्रापितवान्। तदनन्तरम् आश्रमं प्रत्यागतवान्। युद्धसमये माधवस्य शरीरं क्षतविक्षतम् आसीत्। एतद् दृष्ट्वा गुरुः पृष्टवान्, किं सञ्जातम् इति। माधवः सर्वं वृत्तान्तं निवेदितवान्। तदा तत्रत्याः केचन गुरुं पृष्टवन्तः, ब्राह्मणः युद्धं कर्तुम् अर्हति किम्? एतद् धर्मविरुद्धं किल इति। तदा गुरुः उक्तवान्, माधवः युक्तमेव आचरितवान्। पूजार्हाणां रक्षणं करणीयम् एव। अतः माधवः श्रेष्ठं धर्मम् आचरितवान्। एषः एव माधवः ततः परं विद्यारण्यः इति प्रसिद्धः। एषः एव विजयनगरं स्थापितवान्।